एषा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा प्रधानमन्त्रिणा बालेन्द्र शाहेन उद्योग व्यवसाय निवेशन वातावरण आर्थिक सुधार सम्बद्धेषु विषयेषु नैज क्षेत्रस्य प्रतिनिधिभिस्सह विमृष्टमस्ति प्रधानमन्त्री मन्त्री परिषद कार्यालये सम्बुते विमर्शने प्रधानमन्त्री शाह देशस्य आर्थिकं गतिविधिं सक्रियं सुदृढं च विधातुं उद्योग व्यवसाय संचालन कार्यं सहजं विधातुं निवेश मैत्री वातावरणं निर्मातुं नीतिगतं प्रक्रियागतं च अवरोधम् अपसारयितुं निज क्षेत्रस्य मनोबलम् अभिवर्धयितुं च विमृष्टमस्ति पिम्बिष्टवानस्ति तदवसरे प्रधानमन्त्री शाह देशस्य आर्थिक विकासाय निवेशस्य विस्ताराय वृत्त्युपार्जनानां सर्जनाय उत्पादन वृद्धये च नैज क्षेत्रं सर्वकारस्य महत्वपूर्णं सहयात्री वर्तते इति चर्चयन् उद्योगी व्यवसायीभि अनुभूयमानं व्यावहारिकीं समस्यां समाधातुं सर्वकार तत्परोऽस्तीति प्रावोचत् तदवसरे नैज क्षेत्रस्य प्रतिनिधिभि उद्योग व्यवसायस्य प्रवर्धनाय निवेशस्य विस्ताराय नीतिगताय स्थिरतायै सर्वकारस्य नैज क्षेत्रस्य च मध्ये नियमितरूपेण परिणामपरक संवादस्य च आवश्यकताया विषयेषु परामर्श प्रस्तुत आसीत् सर्वकारेण गोविन्द बहादुर कार्की नेपाल सर्वकारस्य मुख्य सचिव पदे नियुक्तोऽस्ति मन्त्री परिषद ह्यस्तनोपवेशेन प्रधानमन्त्री मन्त्री परिषद कार्यालयस्य सचिवं कार्की इत्यमुं मुख्य सचिव पदे नियोक्तुं निर्णीतमस्तीति सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मित पोखरेल अज्ञापयत् मन्त्री परिषद उपवेशेन कैलालीवर्तिन गेटा चिकित्सालयं हुतात्म दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालयस्य शिक्षण चिकित्सालय रूपेण संचालयितुं स्वीकृति प्रदत्ता अस्ति उपवेशेन काष्ठमण्डप उपत्यका विकास प्राधिकरणस्य विकास आयुक्त पदे काष्ठमण्डपस्य सूरज शाक्य इत्यमुं नियोक्तुं वैदेशिक शैक्षिक कार्यक्रम संचालन नियमन सम्बद्धाम् एतद् विक्रम वर्षीयां नियमावलीं शैक्षिक परामर्श भाषा शिक्षण पूर्व कार्य कक्षा संचालन व्यवस्थापन सम्बद्धाम् एतद् विक्रम वर्षीयां नियमावलीं स्वीकर्तुं च निर्णीतमस्ति इति शिक्षा मन्त्री पोखरेल असूचयत् प्रतिनिधि सभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं नेपाल राष्ट्रकोष तृतीय संशोधन विधेयकं गत विक्रमवर्षीयं पर्यटन विधेयकं च प्रकरणगत विमर्शनाय सम्बद्ध समितौ प्रेषिते स्तः उपवेशे अर्थमन्त्रिणा डाक्टर सोनिम वाग्ले विधेयर नेपाल राष्ट्रकोष सम्बद्धं तृतीय संशोधन विधेयकं संस्कृति पर्यटन नागरिक उड्डयन मन्त्रिणा खड्गराज पौडेलेन पर्यटन विधेयकं च सभायां प्रस्तुति आस्ताम् उपवेशे प्रतिनिधि सभायाः सचिवः प्रकाश अधिकारी एतद् विक्रमवर्षीय विनियोजन विधेयकस्य सन्दर्भे राष्ट्रसभातः प्राप्तं सन्देशं विज्ञापितवान् आसीत् ह्यस्तनोपवेशे सभामुख डुल प्रसाद अर्याल नेकपा एमाले दलस्य सांसदेन राजेन्द्र राई इत्यनेन प्रदत्ताम् अभिव्यक्तिं संसद अभिलेखाद् अपसारयितुं निर्दिष्टवान् आसीत् ह्यस्तनोपवेशे सांसद परशुराम तामाङ हर्कराज राई ताहिर अलीफाज पद्मा कुमारी अर्यालश्च सामयिक विषयेषु स्वधारणां प्राकटयन् प्रतिनिधि सभायाः अपरोपवेशः अद्य पूर्वाह्नस्य एकादशवादने वसति भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन धनुषा जनपदस्य राम जानकी मन्दिर प्रभृतिनां बृहत्तर जनकपुर क्षेत्रस्य अन्तर्गतानां गुठी संस्थानानां भूमेः संरक्षणाय अतिक्रमणस्य निवारणाय च गुठी संस्थानस्य प्रधान कार्यालयस्य गुठी प्रशासकस्य ध्रुव घिमिरेविदस्य संयोजकत्वे नवसदस्या क्रियान्वयन समितिः संघटिता वर्तते समिते बृहत्तर जनकपुर क्षेत्रस्य अन्तर्गतानां हृद पुष्करिणी राम जानकी मन्दिरादि प्रमुख मठ मन्दिराणां गुठी संस्थानस्य च भूमिः विहितस्य अतिक्रमणस्य विषये सम्भूतया प्रगत्या सह पञ्चदश दिवसाभ्यन्तरे विवरणं मन्त्रालये प्रस्तोतुं कार्यादेशः प्रदत्तो वर्तते समित्या द्वाषष्ट्युत्तर द्विसहस्रतम विक्रमवर्षस्य उच्चस्तरीय कार्यदलस्य प्रतिवेदने षट्सप्तत्युत्तर द्विसहस्रतम विक्रमवर्षस्य सर्वकारीय सार्वजनिक गुठी संस्थान सम्बद्ध भूमि संरक्षण अनुसन्धान आयोगस्य प्रतिवेदने अथ च गुठी संस्थान भूमि सम्बद्धेषु अन्य प्रतिवेदनेषु च उल्लिखितानां विषयाणां क्रियान्वयनं करिष्यते अधिकार दुरूपयोग अनुसन्धान आयोगेन काष्ठमण्डपस्य वानेश्वरवर्तिनः सर्वकारीय कर्मचारी चिकित्सालयस्य औषधालयस्य इन्चार्ज पदीयया औषधालयाधिकृतया दीपादहाल इत्यनया सहितानाम् अष्टानाम् जनानाम् विरुद्धे कोटिद्वयस्य एकोनवतिर्लक्षाणाम् च रूप्यकाणाम् भ्रष्टाचार विहित इत्यभियोगे आरोपपत्रम् पञ्जीकारितमस्ति। अधिकार दुरुपयोगानुसन्धान आयोगस्य प्रवक्तुः सुरेश न्यूपानिविदस्य अनुसारेण दीपा दाहाल ढुंगाना इत्यनया सहितानाम् चिकित्सालयस्य औषधालयस्य इन्चार्ज पदीयस्य लवेन्द्र कुंवर इत्यस्य वरिष्ठ औषधालय सहायकस्य दिनेश पन्तस्य औषधालय सहायकस्य दीपक सापकोटाविदस्य वरिष्ठ औषधालय सहायकयोः विनोद पोखरेलस्य शर्मिला श्रेष्ठस्य च औषधालय सहायकयोः केशवराज न्यूपाने इत्यस्य सन्दीप तिवारी विदस्य च विरुद्धे भ्रष्टाचारस्याभियोगे आरोपपत्रम् पञ्जीकारितमस्ति इति ज्ञापितम् वर्तते। एतेषाम् विरुद्धे कोटिद्वयस्य एकोनवतिर्लक्षाणाम् च रूप्यकाणाम् भ्रष्टाचारस्य अभियोगे आरोपपत्रम् पञ्जीकारितमस्ति इति आयोगेन ज्ञापितम् वर्तते। विशेष न्यायालयेन नेकपा एमाले दलस्योपाध्यक्षं विष्णुप्रसाद पौडेलं सम्पद शुद्धिकरण सम्बद्धे अभियोगे पञ्चदिनानि निग्रहणे संस्थाप्य अनुसन्धातुं प्रहरिणे अनुमतिर्दत्ता अस्ति। विशेष न्यायालयस्य सदस्ययोः नारायण प्रसाद पौडेलस्य विदुर कोइराला इत्यस्य च न्यायपीठेन पौडेलं ह्य बुधवासरात् आरभ्य पञ्चदिनानि न्यायिक निग्रहणे संस्थापयितुम् अनुमतिर्दत्ता अस्ति। लुम्बिनी प्रदेशसभया आगामिनः आर्थिकवर्षस्य कृते प्रदेशसर्वकारेण प्रस्तुतं विनियोजन विधेयकं बहुमतेन पारितीकृतमस्ति। प्रदेशसभायाः ह्यस्तनोपवेशेन आगामिनः आर्थिकवर्षस्य आयव्ययकं बहुमतेन पारितीकृतमस्ति। लुम्बिनी प्रदेशसर्वकारेण आगामिनः आर्थिकवर्षस्य कृते सप्तत्रिंशत अब्जानाम् अष्टात्रिंशत कोटीनां पञ्चचत्वारिंशत् लक्षाणां च रूप्यकाणाम् आयव्ययकम् आनीतमस्ति। पारपत्र विभागेन नूतन प्रणाल्यां रूपान्तरणस्य उद्देश्येन दिनद्वयं यावत् पारपत्र सेवा पिधीयमानास्ति इति ज्ञापितं वर्तते। विभागेन ह्य सूचनां प्रकाश्य सेवेयम् अद्य श्वः पिधीयमानास्ति इति सूचितम् अस्ति। प्रतिनिधि सभान्तर्गतायाः विधि न्याय मानवाधिकार समितेः उपवेशे सांसदैः भूमिहीनानां जनानाम् अधिकारस्य संरक्षणाय संक्रमणकालिक न्यायस्य प्रभावकारितायै च बलं दत्तमस्ति। समितेः स्तनोपवेशे सांसदः भूमिहीनानां जनानां व्यवस्थापनाय बालविवाहस्य न्यूनीकरणाय यौनजन्य हिंसा पीडितेभ्य न्यायस्य सुनिश्चिततायै च नीतिगत सुधारस्य आवश्यकता अस्ति इति उक्तवन्तः। उपवेशे राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्षः तपबहादुर मगरः सचिवः मुरारी प्रसाद खरेलश्च स्वकीयां धारणां व्यक्तवन्तौ। इति समाचारः।